गुरुब्रह्मा गुरुविष्णुगुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे एतावत् अस्मिन् वर्गे वयं किं कृतवन्तः इत्युक्ते तत्र पदार्थाः के अपि द्रव्याणि कानि अपि तत्र ससम्बन्धिकाः शब्दाः इति विषयस्य अध्ययनं किञ्चित् कृतवन्तः अपि निरूपकनिरूप्यभावः इति तस्मिन् विषये अपि किञ्चित् अध्ययनं कृतवन्तः तत्र चत्वारिंशत् गुणाः सन्ति इति अपि दृष्टवन्तः इदानीं तत्र अग्रे सरामः तत्र पुटसङ्केतनीमस्ति तत्र नव हा तत्र प्रायशः दशमपुटे न प्राप्तवन्तः इति मन्ये नवमपुट नवमे पुटे स्मः इति मन्ये अस्तु तर्हि तत्र एतावत् किं कृतवन्तः इति तत्र किञ्चित् परिशीलयामः अस्तु तर्हि तत्र सर्वे जानन्ति खलु तत्र अस्माकं वर्गस्य शैली किञ्चित् भिन्ना अस्ति इति तत्र सर्वे वदन्ति अतः तत्र एतत् कुर्मः तर्हि तत्र तर्हि तत्र सरिता भगिनी नमस्कारः
अस्तु
पुस्तकं प्राप्तं खलु भगिनि
पुस्तकं नास्ति परन्तु पी डी एफ़् फैल् तस्य
अस्तु अस्तु समीचीनं भगिनि अस्तु तर्हि अस्तु तर्हि तत्र अस्तु तत्र विमला भगिनी तत्र किञ्चित् वक्तुम् इच्छति वा तत्र आरम्भे तत्र वयम् एतत् दृष्टवन्तः अष्टमे पुटे तत्र चित्रमस्ति तत्र द्रव्यं गुणः कर्म सामान्यं विशेषः समवायः अभावः इति तस्मिन् तत्र चित्रे किं निर्दिष्टमस्ति इति किञ्चित् वदति वा विमला भगिनी अस्तु तत्र
महोदय क्षम्यतां कार्याने अस्मि अर्धघण्टानन्तरं भागमोड्यामि
अस्तु 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 भगिनि चिन्ता मास्तु
अस्तु महोदय क्षम्यतां
चिन्ता मास्तु अस्तु तर्हि प्रतिमा भगिनी तत्र किञ्चित् वक्तुम् इच्छति वा अस्तु अस्तु तर्हि तत्र अस्तु तत्र के वक्तुम् अस्तु तत्र हा धनश्री भगिनी किञ्चित् वक्तुम् इच्छति वा
आं महोदय
हा नमस्कारः भगिनि
नमस्कार चित्रसङ्ख्या एकादश
हा सत्यं भगिनि हा
तत्र द्रव्ये के तिष्ठन्ति इति दत्तमस्ति अनन्तरं गुणे के तिष्ठन्ति कर्मे के तिष्ठन्ति तादृशं सर्वे पदार्थेषु के अन्ये पदार्थाः तिष्ठन्ति इति तत्र दत्तमस्ति
हा अतः तत्र चित्रेण किं निरूपितम् इत्युक्ते अस्माकं प्रश्नः भवति किं द्रव्यम् अपि गुणः तयोः मध्ये भेदः अस्ति वा इति खलु तत्र द्रव्यं भिन्नम् अपि गुणः भिन्नम् इति कथं निर्णेतुं शक्नुमः तत्र सप्तपदार्थाः इति उक्तं किन्तु द्रव्यं भिन्नम् अपि गुणः भिन्नः इति तत्र कथं निर्णयः भवति इत्युक्ते एतद् उपयुज्य एतस्य उपयोगेन वयम् अग्रे गत्वा तत् साधितुं शक्नुमः यतोहि द्रव्ये अन्ये सर्वे तत्र सर्वे पदार्थाः तिष्ठन्ति द्रव्ये किन्तु गुणे द्रव्यं न तिष्ठति नाम द्रव्यं गुणस्य अधिकरणं भवितुम् अर्हति अन्यद्रव्यस्य अपि अधिकरणं भवितुम् अर्हति किन्तु गुणः द्रव्यस्य अधिकरणं न भवितुम् अर्हति इति समीचीनं खलु भगिनि धनश्री भगिनि तथैव तत्र कर्म अपि गुणः तयोः मध्ये अपि भेदः स्थापितः खलु समीचीनं वा भगिनि धनश्री भगिनि
कर्मे गुणे च सामान्यं समवाय अभावः एव तिष्ठन्ति तत्र साम्यमेव अस्ति भेदः नास्ति
तत्र भेदः नास्ति अतः तत्र हा सत्यं समीचीनम् अत्र अन्यत् किमपि उपयुज्य एव तत्र भेदः स्थापनीयः भवति. समीचीनं. किन्तु कर्म अपि सामान्य तयोः मध्ये
कर्मे अपि सामान्यं समवायः
कर्मणि कर्मणि हा कर्मणि
कर्मणि सोरि कर्मणि द्रव्यगुणः कर्म विशेषः च नास्ति, सामान्यं समवायः अभावः एव अस्ति.
हा किन्तु सामान्ये सामान्यं न तिष्ठति. हा अतः तत्र कर्म अपि सामान्य द्वयोः मध्ये भेदः अस्ति. अपि तत्र कर्म अपि गुणः तत्र भेदः इदानीं न वक्तुं शक्नुमः, किन्तु सामान्यमपि गुणः तयोः मध्ये भेदः अस्ति, अपि विशेषः अपि कर्म तयोः मध्ये भेदः अस्ति. अतः तत्र चित्रे तत्र केचन भेदाः स्थापिताः इदानीमेव, किन्तु अग्रे गत्वा सर्वं पश्यामः, न्यास्यामः. सर्वे समीचीनं भगिनी, अस्तु, तत्र धन्यवादः. तत्र
भवान्
किं भगिनि
एतेषाम् उदाहरणानि सन्ति, यथा द्रव्यम् अस्ति चेत् तत्र पृथ्वी एकं.
समीचीनं भगिनि. हा तत्र एतत् इदानीं तत्र परिचयत्वेन दत्तं, किन्तु द्रव्याणि नवद्रव्याणि सन्ति तत्र पुटसङ्ख्या भवति एव. तत्र प्रथमपुटं पश्यतु भगिनि, अपि वदतु तत्र नवद्रव्याणि कानि इति.
अस्तु अस्तु. पृथिवी, जलं, तेजः, वायुः, आकाशः, कालः, दिक्, आत्मा, मनः.
द्रव्याणि सन्ति. अपि तदनन्तरं तत्र पुटसङ्ख्या तत्र सप्तमे पुटे पश्यतु, तत्र उपरि तत्र दत्तमस्ति तत्र पदार्थाः के इति. पदार्थः क्षम्यतां, तृतीयपुटे दत्तमस्ति पदार्थाः के इति.
हा तत्र द्रव्यगुणकर्म सामान्यविशेषसमवाय अभावः इति सप्तपदार्थाः.
हा तत्र पृथक्तया अधोभागे दत्तमस्ति द्रव्यं गुणः कर्म
अपि अस्ति खलु. खलु द्रव्यं गुणः सामान्यं विशेषः समवाय अभावः. समवायः इत्युक्ते सम्बन्धः अस्ति वा?
हा 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 अग्रे अग्रे ज्ञास्यामः किम् अस्ति इति. इदानीं तत्र केवलं नामकरणं भगिनि, तत्र तस्य लक्षणं तत्र किं किम् अस्ति इति अग्रे उच्यते. किन्तु इदानीं तत्र प्रथमे तत्र हा इदानीं केवलं परिचयः इति एव स्वीकरोतु. अपि तत्र अग्रे तत्र सप्तमे पुटे तत्र मध्यभागे स्थूलक्षरैः यदा अस्ति तत् गुणान् विभज्यते इति, ततः गुणान् विभज्यते इति अस्ति.
रूपरसगन्धस्पर्शसङ्ख्यापरिमाण इति. अस्तु
एकवारं पठतु भगिनि.
रूपरसगन्धस्पर्शसङ्ख्यापरिमाण पृथक्त्व संयोग विभागपरत्व द्रवत्व स्नेह शब्द बुद्धि सुख दुःख इच्छा द्वेष प्रयत्न धर्म अधर्म संस्काराः चतुर्विंशति गुणाः
इति भवन्ति. अपि कर्माणि तस्य अधोभागे कर्माणि दत्तानि सन्ति.
उत्क्षेपण
अपक्षेपण
अपेक्षण
आकुञ्चन
अपेक्षण
अपक्षेपण अपक्षेपण
आकुञ्चन प्रसारणं प्रसारण गमनं
इति पञ्चकर्माणि इति पञ्चकर्माणि. तत्र वयं चिन्तितुं शक्नुमः तत्र कर्म इति नाम क्रिया इति, तत्र अनेकानि कर्माणि सन्ति, किमर्थं तत्र केवलं पञ्च इति दत्तम् इत्युक्ते तत्र उदाहरणत्वेन दत्तम् इति चिन्तयितुं शक्नुमः. उत्क्षेपणं नाम उपरि क्षेपणम्, अपक्षेपणं नाम अधोभागे क्षेपणम्, आकुञ्चनं नाम तत्र किमपि समीपे आनयनम्, अपि प्रसारणं किमपि दूरे नयनम्, अपि अन्यत् सर्वं गमनम् इति तस्मिन् अन्तर्भूतः अस्ति इति चिन्तयितुं शक्नुमः. किन्तु पुस्तके अनेकानि कर्माणि दत्तानि सन्ति, केवलं तत्र पञ्चकर्माणि इति न, तत्र पञ्चकर्मणि केवलं तत्र साधारणविभागः इति, तत्र उपरि अधो समीपं दूरम् इति, तत्र चतुर् चतुष्टयं स्वीकृत्य अन्यत् सर्वं तत्र गमने अन्तर्भूताः इति इदानीं चिन्तितुं शक्नुमः. किन्तु इदानीं तत्र अस्माकं प्रमुखविषयः गतो वर्गे यत् वयं पठितवन्तः सः अस्ति तत्र निरूपनिरूपकभावः, तत्र आधेयता अधिकरणता इति. अतः तत्र केवलम् एकवारं तत्र अन्य कोऽपि वदतु तत्र तस्मिन् विषये. तत्र शैलजा भगिनी.
आं महोदय.
तत्र एतत् वदतु भगिनी, तत्र तत्र द्रव्यम् अपि गुणः, तत्र तयोः मध्ये तत्र चित्रं यत् अस्ति षष्ठे पुटे, तत्र चित्रद्वयम् अस्ति, द्रव्यं गुणः, तयोः उपरि अधिकरणता आधेयता इति. तत्र द्रव्यम् अपि गुणः, गुणः द्रव्ये तिष्ठति वा अथवा द्रव्यं गुणे तिष्ठति वा?
द्रव्ये गुणः तिष्ठति.
हा, द्रव्ये गुणः तिष्ठति, समीचीनम्. अतः द्रव्ये अधिकरणता अस्ति, गुणे आधेयता अस्ति. अपि आधेयता इति यदि वदामः, गुणे आधेयता अस्ति इति वदामः चेत् तत्र मनसि प्रश्नः उदेति, कीदृशी आधेयता, तत्र निरूपणं, तत्र अन्यत् किमपि अपेक्षितम् अस्ति खलु, तत्र अधिकरणता कस्य इति. अतः तत्र निरूपणं, तत्र आधेयता इति, तत्र तत्र वर्णनं कथं भवति, गुणः कीदृश आधेयता, गुणे कीदृश आधेयता अस्ति?
गुणः
तत्र अधिकरणता निरूपित आधेयता इति वदामः खलु. हा, तत्र अतः भगिनि तत्र एकवारं केवलं पुनस्मरणार्थं तत्र तस्य उपरि एव आसननिष्ठ अधिकरणता इति एकं वाक्यम् अस्ति खलु, यज्ञदत्तः इति. तत् एकवारं पठतु भगिनि.
आसन द्रव्यं निष्ठ अधिकरणता.
न न तस्य उपरि भगिनि तत्र.
आं महोदय. आसनं निष्ठा अधिकरणता
निरूपित
निरूपित आधेयता
आश्रयः
अधेयता आश्रयः यज्ञदत्तः.
हा, तत्र वयं किं कुर्मः, चित्रं दृष्ट्वा उपरि गमनार्थं कस्य पदस्य उपयोगः भवति? आसन इति अस्ति तत्र, आसननिष्ठा इति, तत्र आसनं मास्तु. हा, अस्तु, आसनं मास्तु. इदानीं द्रव्यमिति अस्ति, द्रव्ये द्रव्यस्य उपरि गन्तुम् इच्छामः, तत्र किं कस्य पदस्य उपयोगः भवति?
द्रव्यम् अधिकरणता
अस्ति, द्रव्य अधिकरणता अस्ति इति वक्तुं कथं वदामः? द्रव्य
अधेयता
न द्रव्ये अधिकरणता अस्ति इति कथं वदामः? निष्ठ इति पदस्य उपयोगेन द्रव्यनिष्ठ अधिकरणता इति वदामः. समीचीनं भगिनि. हा, तदनन्तरं द्रव्यनिष्ठ अधिकरणता निरूपित आधेयता. इदानीं तत्र अधो गमनम् आश्रयः अथवा गुणः इति. समीचीनं भगिनि. इदानीं तत्र विपरीतदिशि गच्छतु, गुणनिष्ठ
आधेयता गुणनिष्ठ आधेयता
निरूपित
अधिकरणता निष्ठ द्रव्यं.
न न निष्ठ इति न, इदानीम् आश्रयः
आश्रयः
द्रव्यम् इति अस्ति. समीचीनं भगिनि. हा, अस्तु, तत्र एतादृशम् अभ्यासम् अपेक्षितम् अस्ति, यदि कुर्मः समीचीनम् अस्ति, अभ्यासः अपेक्षितः अस्ति. अस्तु, तत्र तादृश अभ्यासः तत्र केवलं पुनरेकवारं कुर्मः तत्र. हा, शोभा भगिनी भवती कर्तुम् इच्छति वा? तत्र सामान्यं द्रव्ये अस्ति इति स्वीकृत्य.
अस्तु महोदय, तदेव किल.
हा, सामान्यं द्रव्ये अस्ति इति स्वीकरोतु.
सामान्यं द्रव्ये अस्ति, अस्तु,
हा इति स्वीकरोतु. अतः तत्र सामान्य किमस्ति, द्रव्ये किमस्ति, तत्र
सामान्ये द्रव्यं सामान्यं द्रव्ये अस्ति इति चेत् द्रव्यनिष्ठ
अधोभागे किम् अस्ति, द्रव्यम् अधोभागे अस्ति वा सामान्यम् अधोभागे अस्ति वा?
द्रव्यम् अधोभागे अस्ति,
सामान्यं उपरि तिष्ठति.
अतः तत्र द्रव्यनिष्ठा सामान्यता
न न न न द्रव्य किम् अस्ति, द्रव्यम् अधिकरणम् अस्ति,
द्रव्ये अधिकर अस्तु द्रव्यनिष्ठ अधिकरणता निरूपित सामान्यम् इति
न न न पुनः 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 एतत् कुर्मः अस्तु भगिनि एतत् कुर्मः सामान्यः सामान्यम् इति पदार्थः द्रव्ये तिष्ठति खलु तत्र यथा तत्र सप्तमे पुटे दत्तमस्ति खलु तत्र सामान्यम् इति तिष्ठति द्रव्ये इति सामान्योपरि अस्ति द्रव्यम् अधोभागे अस्ति द्रव्यम् अधिकरणमस्ति अतः
द्रव्ये अधिकरणमस्ति चेत् सामान्यम् इति गुणः भवति
न गुणः इति नास्ति इदानीं गुणः इति केवलं गुणः तिष्ठति इति नास्ति द्रव्ये द्रव्ये अन्ये पदार्थाः अपि तिष्ठन्ति अतः इदानीं तत्र सामान्यमपि तिष्ठति द्रव्ये किन्तु इदानीं सामान्यं गुणः इति विषयः मास्तु किन्तु सामान्यं द्रव्ये तिष्ठति द्रव्यम् अधिकरणं द्रव्ये अधिकरणता अस्ति सामान्यम् आदेयः अस्ति खलु
ओ अस्तु महोदय सामान्यं
आसने तिष्ठति इति तत्र आसने अधिकरणता यज्ञदत्ते आधेयता तथैव अत्र द्रव्ये अधिकरणता सामान्ये किमस्ति
आधेयता अस्ति
आधेयता अस्ति हा इदानीम् इदानीं तत्र कीदृशसामान्यम् इति उक्तं चेत् किं कुर्मः द्रव्य आरभ्य द्रव्यम् अस्ति तथा आरभ्य सामान्यं परि तत्र पर्यन्तं गन्तुम् इच्छामः अतः तत्र
तर्हि द्रव्यनिष्ठ अधिकरणता निरूपित आधेयता आश्रयः सामान्यम्
सामान्यं समीचीनं भगिनि हा उत्तमं हा इदानीं तत्र अग्रिम तत्र अधोभागे अन्यचित्रमस्ति अतः इदानीं तत्र सामान्यम् इति तथा आरभ्य द्रव्यस्य विवरणम् अतः तत्र सामान्य
सामान्यनिष्ठ आधेयता निरूपित अधिकरणता आशयः द्रव्यम्
हा उत्तमं भगिनि एतावत् एतदेव करणीयमस्ति हा समीचीनम् उत्तमं भगिनि हा उत्तमं
धन्यवादः एकः प्रश्नः अस्ति अत्र पृच्छामि वा
पृच्छतु भगिनि
अत्र द्रव्यम् अस्ति गुणः अस्ति अथवा सामान्यम् अस्ति तत्र कोऽपि अन्यपदार्थः गुण द्रव्ये अस्ति तत्र द्रव्य कथयति निरूपति द्रव्यं निरूपति निरूपिति गुणः अहं कथं वदामः गुणः कः अथवा सामान्यं कः
एतस्य निरूपणं द्रव्ये भविष्यति भगिनि हा तत्र इदानीं तत्र भवती नूतनतया आगता इति तत्र वदामि प्रथमभागे तत्र उद्देशः भागः नाम केवलं नामकरणं किं किम् अस्ति इति नामकरणं नामावली तावदेव तदनन्तरं किञ्चित् विवरणमपि दीयते किन्तु अनन्तरं लक्षणभागः भवति तत्र कः भेदः तस्य लक्षणं किं लक्षण नाम किम् इति तत्सर्वम् अग्रे उच्यते भगिनि इदानीं केवलं तत्र परिचित्वेन उदाहरणानि कानि गुणाः तत्सर्वं दत्तमस्ति
द्रव्यगुणो द्वयोः मध्ये अधिकरण
अधेयभावः तादृशभावः तत्र सामान्यम् अपि द्रव्यं तयोः मध्ये अपि अस्ति यत्र तत्र चित्रे द्वादशचित्रे एकादशसङ्ख्याचित्रे यद् दर्शितमस्ति तत्र सामान्यं कर्मणि तिष्ठति इत्युक्ते तत्र कर्मणि अधिकरणता अस्ति सामान्ये आधेयता अस्ति
तत्र आङ्ग्लभाषायां वक्तुं शक्यते सामान्यं समवायः अभावः केवलं कर्मे एव भवति तत्र अन्य
कर्मणि एव भवति तत्र गुणे अपि भवन्ति खलु तत्र सामान्यं
परन्तु सामान्यं समवायः अभावः एतानि पदार्थाः केवलं एतानि पदार्थाः एव केवलं
पदार्थाः वदतु भगिनि
तत्र सामान्यं समवायः अभावः एतानि पदार्थानि एव
केवलं कर्मे कर्मणि भवितुम् अर्हति, अन्य कोऽपि नास्ति अत्र।
हा हा, कर्मणि अपि गुणे गुणे अपि भवितुम् अर्हन्ति।
अस्तु अस्तु अस्तु, परन्तु परन्तु कर्मे अन्य कोऽपि न भवितुम्
अर्हति। कर्मणि अन्य अन्य पदार्थः, सत्यं सत्यं, तदेव दर्शितं, सत्यं भगिनि। हा अस्तु अस्तु, तर्हि इदानीं तत्र एतावत् वयं किं कृतवन्तः इति पुनस्मरणं जातम् इति मन्ये। तत्र पुनरेकवारं वदामि, तत्र आधेयता अधिकरणता तयोः मध्ये निरूपकनिरूप्यभावः अस्ति। लौकिक उदाहरणं तत्र यत् दत्तमस्ति, तत्र यज्ञदत्तः आसने तिष्ठति, तत्र यज्ञदत्ते आधेयता अस्ति, अपि तत्र आसने अधिकरणता अस्ति, तयोः मध्ये आधेयता अधिकरणता, तयोः मध्ये निरूपकभावः अस्ति। किन्तु यज्ञदत्तः अपि आसनः आसनं यत् अस्ति, ते तु तत्र ससम्बन्धिकाः इति न वक्तुं शक्नुमः खलु। नाम यज्ञदत्तः इति वदामः, तत्र आसनमिति मम अस्माकं मनसि आगच्छति वा? न। किन्तु यत्र आधेयता इति वदामः, तत्र अधिकरणता किमपि भवेत् इति मनसि उदेति एव। अतः तत्र निरूप्य निरूपकभावः आधेयता अधिकरणतयोः तयोः मध्ये एव वर्तते। अस्तु, इदानीं तत्र अग्रे सरेम। तत्र इदानीं तत्र नवमे पुटे स्मः, तत्र अस्तु, तत्र योगेन्द्रमहोदय तत्र आरम्भं कर्तुं शक्नोति वा महोदय? तथा च गुणादयः इति चित्रस्य अनन्तरं महोदय।
अस्तु, तथा च गुणादयः सर्वे द्रव्ये एव तिष्ठन्ति इति न तद् वाक्यार्थः, किन्तु द्रव्ये अवश्यं तिष्ठन्ति, गुणादौ यथा यथं तिष्ठन्ति इति अर्थः।
हा, तावत्पर्यन्तं वदतु महोदय। तत्र
गुणादयः ये द्रव्याणि सन्ति ते तानि अपि सर्वे द्रव्ये तिष्ठन्ति इति वदति प्रायः।
हा, तत्र सर्वे पूर्वस्मिन् पुटे महोदय, तत्र चित्रात् प्राक् तत्र अधोभागे तत्र वाक्यमस्ति, सर्वे गुणादयः द्रव्ये वर्तन्ते इति अस्ति।
आम्,
हा, तस्य अर्थः कः इत्युक्ते, गुणादयः सर्वे द्रव्ये एव तिष्ठन्ति इति न, तत्र सर्वे गुणादयः द्रव्ये वर्तन्ते इति, तत्र चित्रे दर्शितमस्ति खलु, चित्रे द्रव्ये सर्वे पदार्थाः तिष्ठन्ति खलु।
आम्,
हा, किन्तु सर्वे तत्र पदार्थाः केवलं द्रव्ये एव तिष्ठन्ति वा अथवा अन्येषु पदार्थेषु अपि तिष्ठन्ति? नाम तत्र सामान्यम् इति तत्र केवलं द्रव्ये तिष्ठति वा अथवा अन्येषु पदार्थेषु अपि अस्ति वा सामान्यम्?
अहं तु ऊहां करोमि, सामान्यम् अन्य द्रव्याणि अपि अन्य
पदार्थ चित्रं पश्यतु, चित्रं दृष्ट्वा वदतु, तत्र सामान्यं केवलं द्रव्ये एव तिष्ठति वा अथवा सामान्यं गुणे अपि भवितुम् अर्हति वा कर्मणि भवितुम् अर्हति वा? चित्रे किं निर्दिष्टम्?
सामान्यं गुणे अस्ति,
हा, तत्र भवितुम् अर्हति, समवायः अपि गुणे
भवति, अभावः अपि अस्ति।
हा, अतः एतस्य वाक्यस्य तत्र सर्वे गुणादयः द्रव्ये वर्तन्ते इति वाक्यस्य अर्थः, गुणादयः सर्वे द्रव्ये एव तिष्ठन्ति, नाम अन्येषु न तिष्ठन्ति इति न तस्य वाक्यस्य अर्थः, किन्तु किन्तु गुणादयः सर्वे द्रव्ये तिष्ठन्ति, अवश्यं तिष्ठन्ति, किन्तु गुणादौ नाम द्रव्यं विहाय अन्ये गुणादौ यथायतं तिष्ठन्ति इति अर्थः, नाम तत्र अन्येषु द्रव्यं विहाय अन्येषु पदार्थेषु केचन पदार्थाः तिष्ठन्ति, सर्वे पदार्थाः सर्वेषु पदार्थेषु तिष्ठन्ति इति न, अपि सर्वे पदार्थाः केवलं द्रव्ये तिष्ठन्ति इति न, सर्वे पदार्थाः द्रव्ये अवश्यं तिष्ठन्ति, किन्तु तद् केवलं केवलं तद् नास्ति, अन्ये अपि तत्र भवितुम् अर्हति यथा चित्रेण निर्दिष्टम्।
वायसे वर्षा नास्ति इति अर्थः
किं महोदय
वायसे वर्षा नास्ति इति अर्थः
हा हा नाम सत्यं सत्यं तत्र द्रव्यमेव सर्वदा अधिकरणम् अस्ति इति अर्थः नास्ति समीचीनं
वा
अस्तु अस्तु तर्हि अग्रे अपि पठतु
अन्ये गुणाः अपि अधिकरणता प्राप्नोति इति
गुणः अपि अधिकरणं भवितुम् अर्हति सत्यं भगिनि हा गुणः अपि अधिकरणं भवितुम् अर्हति कर्म अपि अधिकरणं भवितुम् अर्हति इति सत्यं अस्तु अग्रे महोदय हा शर्वाणि भगिनि पृच्छतु भगिनि
अत्र द्रव्यं द्रव्ये कथं भवितुम् अर्हति
भगिनि तत्र एतत् स्वीकरोतु तत्र पुस्तकमस्ति पुस्तकं तत्र किम् अस्ति द्रव्यमस्ति वा गुणः अस्ति वा कर्म अस्ति वा किं भवत्याः चिन्तनं पुस्तकं
पुस्तकं द्रव्यं
द्रव्यम् अस्तु उत्पीठिका
उत्पीठिका अपि द्रव्यमस्ति
अस्तु अतः पुस्तकम् उत्पीठिकायां स्थापितुं शक्नुमः वा
आम्
सः एव तत्र सम्बन्धः यथा यज्ञदत्तः आसने उपविशति द्रव्यं द्वयमपि द्रव्यं खलु
जले 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 यदि शर्करा अस्ति तत्र जलं
किञ्चित् भिन्ना अस्ति तत् किञ्चित् भिन्ना अस्ति किन्तु समीचीनम् इदानीं तदपि चिन्तितुं शक्नुमः अतः तत्र द्रव्यं द्रव्ये तिष्ठति इति समीचीनं खलु भगिनि शर्वाणि भगिनि हा अस्तु अस्तु तर्हि योगेन्द्रमहोदय अग्रे पठतु महोदय
द्रव्ये वर्तन्ते इत्यत्र पूर्वदर्शितचित्रैः अर्थवर्णनेन च इदम् आयाति सामान्यं द्रव्ये गुणे कर्मणि त्रिषु वर्तते तत्र सर्वेषु द्रव्येषु विद्यमानं गुणरूपं पदार्थम् आदयः द्रव्यसमुदायः यथा निरूपितः पृष्ठसङ्ख्या द्वितीय तथा गुणत्वसामान्यमादाय गुणसमुदायः कर्मत्र सामान्य आदायः कर्मसमुदायः निरूपयितुं शक्यते
हा इति तत्र केवलं तत्र अग्रे किं भवति इति उक्तं नाम तत्र वयं तत्र द्रव्यमिति तत्र तस्य विवरणं किम् उक्तवन्तः द्रव्यं नाम यस् कोऽपि पदार्थः यस्मिन् गुणः वर्तते अतः गुणं सर्वत्र सर्वेषु द्रव्येषु गुणं वर्तते इति स्वीकृत्य गुणः तत्र यस्मिन् तत्र गुणः वर्तते तत् वयं द्रव्यम् इति स्वीकृतवन्तः गुणम् इति गुणरूपपदार्थम् उपयुज्य द्रव्यसमुदायः द्रव्यसमूहस्य विवरणं कृतवन्तः तथैव अग्रे इदानीं तत्र सामान्यम् इति तस्य पदार्थस्य विवरणं भवति तस्य उपयोगेन तत्र वयम् अन्येषां पदार्थानामपि तत्र निरूपणं कर्तुं शक्नुमः अतः तत्र इदानीम् अग्रे सामान्यम् इति पदार्थः कः इति अग्रे भवति एतावत् वयं द्रव्यं किं गुणः कः कर्म इत्युक्ते किं तत्र पञ्चकर्माणि सन्ति इति उक्तवन्तः इदानीम् अग्रे सामान्यं नाम किम् इति अग्रे इदानीमेव पश्यामः धन्यवादः महोदय योगेन्द्रमहोदय धन्यवादः
धन्यवादः
अस्तु अग्रे तत्र प्रताप् महोदय पठितुम् इच्छति वा
क्षम्यतां महोदय
अस्तु 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 चिन्ता मास्तु
सप्ताहं न उपस्थितः न आसम्
अस्तु अस्तु चिन्ता मास्तु अस्तु
ध्वनिमुद्रणमपि न श्रुतवान् क्षम्यतां
अस्तु अस्तु चिन्ता मास्तु अस्तु शर्वाणि भगिनी भवती पठितुम् इच्छति वा अग्रे
आं महोदय
हा अस्तु
सामान्यपदार्थनिरूपणं तस्य सामान्यस्य त्रीणि अधिकरणानि निरूप्य आधेयं सामान्यं निर्दिशति परम् अपरं चेति द्विविधं सामान्यमिति यद्यपि स्वयं ग्रन्थकारः उपरिष्ठात् सामान्यलक्षणं वदिष्यति तथापि सम्प्रदायरीत्या सामान्यसाधनाय यतितव्यम् इत्थं च जातिसाधनमाहुः। बालं माता गवाक्षात् कञ्चन प्राणिनं प्रदर्श्य इयं गौः इति वदति। ततः तमेव बालमादाय पिता उद्यानं गच्छति। मार्गे पूर्वदृष्टसदृशाकारं प्राणिनं दृष्ट्वा बालः इयं गौः इति वक्ति।
हा, तावत्पर्यन्तम् अस्तु। तत्र परम् अपरम् इति सामान्यं द्विविध सामान्यम् इति पदार्थः अस्ति, तस्य द्वैविध्यम् अस्ति, परम् अपि अपरम्। तत्र किम् इति अग्रे पश्यामः, किन्तु तत्र सामान्यं किम् इति इदानीं तत्र तस्य निरूपणं भवति। अतः तत्र यद्यपि स्वयम् इति ततः आरभ्य वदतु भगिनि, यत् अवगच्छति तत् वदतु भगिनि, सर्वाणि भगिनि। यद्यपि आरभ्य एकमेकं वा वाक्यं स्वीकृत्य वदतु किम् अवगच्छति इति। हा,
ग्रन्थकारः सामान्यलक्षणं वदिष्यति।
न न न, तत्र एकवारं वाक्यं पठतु भगिनि, तदनन्तरं किम् अस्ति इति किञ्चित् वदतु।
यद्यपि स्वयं ग्रन्थकारः उपरिष्टात् सामान्यलक्षणं वदिष्यति, तथापि सम्प्रदायरीत्या सामान्यसाधनाय यतितव्यं। क्षम्यतां महोदय, अहं
अस्तु, तत्र स्वयं ग्रन्थकारः उपरिष्टात् सामान्यलक्ष्यं लक्षणं वदिष्यति, नाम तत्र एतत् सामान्यलक्षणं तस्य विवरणं तत्र सर्वम् अग्रे भवति, किन्तु केवलं लक्षणं यदि वदामः तत्र मनसि स्थापितं न भवति। अतः तत्र तस्मिन् विषये किमपि तथापि तत्र अग्रे वदिष्यामः, सर्वम् अग्रे वदिष्यामः इति चेत् तत्र वयं किमपि न अवगच्छामः। अतः तत्र अग्रे वदिष्यति, तथापि सम्प्रदायरीत्या सामान्यसाधनाय यतितव्यं। तत्र अग्रे लक्षणं भवति इति तावत् पर्याप्तं नास्ति, सामान्यम् इति यदस्ति तद् सम्प्रदायरीत्या एव तस्य विवरणं कर्तुं प्रयत्नं यदि कुर्मः तत् समीचीनं भवति। अतः यतितव्यं साधनाय सामान्यसाधनाय, सामान्यं नाम किम् इति तस्य निरूपणाय प्रयत्नम् अस्माभिः कर्तव्यम्। इत्थं च जातिसाधनम् आहुः। आहुः इत्युक्ते किम्? आहुः
तत्र बहुवचने अस्ति खलु, आहुः बहु वदान् वदन्ति इति।
हा, समीचीनं। हा, तत्र धातुः कः इति, तत्र भ्रूधातुः आह,
भ्रूधातुः
लट्लकारे, हा लट्लकारे, आह आहतुः आहुः, तत्र वदति वदतः वदन्ति। समीचीनं भगिनि। हा, अतः तत्र जातिसाधनं वक्तव्यं वदामः। इदानीम् अग्रे सर्वाणि भगिनि, इदानीं प्रायशः तत्र समीचीनमस्ति इति मन्ये।
बालं माता गवाक्षात् कञ्चन प्राणिनं प्रदर्श्य इयं गौः इति वदति। माता बालं दर्शयति एतत् गौः इति।
प्रदर्शयति,
ततः तमेव बालम् आदाय पिता उद्यानं गच्छति।
इदानीं तत्र बालः किं करोति, पित्रा सह उद्यानं गच्छति। तत्र माता नास्ति इदानीं।
मार्गे पूर्वदृष्टसदृशाकारं प्राणिनं, बालकः पूर्वम् एकः प्राणिनं दृष्टवान्, तत् प्राणिनं पुनरेकवारं दृष्ट्वा इयं गौः इति वदति।
हा, किन्तु तमेव अथवा अन्यं प्राणिनं, मार्गे पूर्वदृष्ट
सदृशाकारं
सदृशाकारमपि अस्ति खलु भगिनि शर्वणि भगिनि हा सदृशाकारं नाम भिन्नं खलु या गोः पूर्वं तत्र बालकेन दृष्टा इदानीं सा गोः नास्ति इदानीम् अन्या हा अन्या गौः अस्ति इदानीं किन्तु बालः किम् उक्तवान् इयं गौः इति उक्तवान् इदानीं तत्र एषः एव मूलविषयः तत्र प्रथमवारं सः तत्र यदि तत्र दर्शनम् अभवत् माता उक्तवती इयं गौः इति किन्तु तदनन्तरं सदृशाकारं प्राणिनं यदा बालकं दृष्टवान् सः एव उक्तवान् इयं गौः इति इदानीं तस्य तत्र अत्र किम् अस्ति एतत् अस्माकम् अनुभवः खलु एतद् बहुवारं जीवने भवति एषः अनुभवः किन्तु अस्य अर्थः कः इति अग्रे पश्यामः धन्यवादः भगिनि अस्तु तत्र अग्रे तत्र कः त्वक का पठितुम् इच्छति तत्र शुभोदय महोदय पठितुम् इच्छति वा
प्रयत्नं करोमि
तत्र पूर्वम् इति
तत्र पूर्वं या गौः त्रेण दृष्टा सा अन्या इयं चान्या सा कृष्णा आसीत् इयं तु श्वेता अतः उभयोः रूपमपि भिन्नम् उभयोरपि शृङ्गपादादयः अवयवाः अपि परस्परं भिन्नाः
हा एतावत् वदतु महोदय हा एतावत् किमस्ति
तत्र पूर्वं या गौः तेन बालेन दृष्टा सा अन्या
सा अन्या अस्ति
इयं छान्या छान्या
इयं च अन्या
च अन्या
नाम द्वितीयवारं द्वितीयदर्शने या गौः अस्ति सा गौः अन्या अस्ति अन्या अस्ति नाम तमे तत्र तामेव गौः गाम् एषः दृष्टवान् इति न अतः च इयं च अन्या गौः
सा गौ कृष्णा आसीत्
प्रथमा गौः कृष्णा आसीत्
इयं तु द्वितीयगौः श्वेता अस्ति
श्वेता अस्ति
अतः उभयोः रूपमपि भिन्नं
नाम
उभयोः
तत्र वर्णः भिन्नः वर्णः भिन्नः अस्ति
वर्णं भिन्नः अस्ति उभयो अपि शृङ्गपादादयः अवयवाः
तत्र शरीरस्य भागाः अवयवाः इति वदामः इति व्यवहारः तत्र शृङ्गः शृङ्ग इति भवति खलु तत्र शृङ्गद्वयं भवति खलु हा धेनूनां हा तत्र शृङ्गः शृङ्ग तदनन्तरं पादः इति तत्र पादादयः अवयवाः एते सर्वे अवयवाः खलु तत्र ते अपि परस्परं भिन्नाः नाम तत्र खलु तत्र भिन्नाः एव खलु प्रथमा धेनुः अथवा प्रथमा गौः अपि द्वितीया गौः तयोः मध्ये तत्र अवयवाः भिन्नाः एव एतावत् समीचीनं वा अस्तु धन्यवादः महोदय अस्तु धन्यवादः अस्तु अग्रे तत्र सुधा भगिनी अग्रे पठितुम् इच्छति वा
महोदय तर्हि किं दृष्ट्वा सः बालः गौः इयम् इति सम्यक् ज्ञातवान् तदेव शास्त्रकारैः सामान्यम् इत्युच्यते समानानां धर्मः सामान्यम् अवयवादिजन्यानि यानि गोशरीराणि तत्र सर्वत्र एकः अनुगतः धर्मः वर्तते अनुगतः
वदतु भगिनि
अनुगतः इत्यस्य सर्वत्र विद्यमानः इत्यर्थः
अस्तु तावत् तावत् स्वीकृत्य वदतु भगिनि तर्हि
तर्हि किं दृष्ट्वा सः बालः गौः इयम् इति सम्यक् ज्ञातवान्
प्रश्नः इति प्रश्नः अस्ति खलु तत् समीचीनः प्रश्नः खलु यतोहि
समीचीनमेव
समीचीनं पूर्वं या तत्र गां दृष्टवान् यत् गां सः दृष्टवान् तां गा तत्र सा गौ तु भिन्ना अस्ति द्वितीय गौः अपि भिन्ना अस्ति अतः तत्र सः कथं ज्ञातवान् तत्र एषा गौ इयं गौः इति तत्र सः तस्य ज्ञानं कथम् अभवत् इति प्रश्नः
यतोहि
तत्र रूपं भिन्नम् अस्ति अवयवाः अपि भिन्नाः सन्ति
तदेव शास्त्रकारैः सामान्यम् इत्युच्यते
अतः सामान्यमिति किमपि अस्ति अतः तद् तदेव तत्र तद्दृष्ट्वा एव तत्र सामान्यं किमपि तत्र बालकेन किमपि दृष्टमस्ति तेन एव तत्र सः ज्ञातवान् अतः तत्र शास्त्रकारैः तस्य नामकरणं किं कुर्वन्ति सामान्यम् इति वदन्ति
समानानां धर्मः सामान्यम् इत्युक्ते किम् अत्र समानः
समानानां धर्मः समानानां धर्मः सामान्यम्
इत्युक्ते सिमिलारिटीस् वा
हा समानानां तत्र सदृशः इति वक्तुं शक्नुमः सदृशः तत्र अग्रे अग्रे आगच्छति हा धर्मः इति समानानां धर्मः सामान्यम्
एकविधा अवयवादिजन्यानि यानि गोशरीराणि तत्र सर्वत्र एकः अनुगतः धर्मः वर्तते
हा तत्र गोशरीराणि तत्र यानि सन्ति तत्र नाम तत्र गावः तत्र सर्वाः गावः सन्ति तासु तत्र एकः धर्मः वर्तते अनुगतः नाम सर्वत्र वर्तते सर्वत्र अस्ति सर्वत्र अस्ति तत्र विद्यमानः
अनुगतः इत्यस्य सर्वत्र विद्यमानः इत्यर्थः
हा अस्तु अस्तु समीचीनम्
एकलक्षणं
तत्र किमपि सः बालकं तत्र किमपि सः बालकः दृष्टवान् अतः तत्र बालकं किं दृष्टवान् अत्र भवती एव अग्रे पठतु तत्
एवं च गवाक्षात् बालः गोशरीरं गोत्वसामान्यं च उभयं पश्यति
हा इदानीं तत्र किमस्ति हा अत्र एकः अन्यः अंशः अस्ति तदपि वक्तव्यः अंशः अस्ति पूर्वं तत्र गवाक्षात् इति अस्ति पूर्वं तत्र बालं माता गवाक्षात् कश्चन प्राणिनं प्रदर्श्य इति अस्ति तत्र गवाक्षात् नाम किं तत्र
गवाक्षात्
गवाक्षः नाम किं कोऽपि जानाति वा गवाक्षः नाम किं
विण्डो
वातायनम् एतदेव तत्र वर्ल्ड् संस्कृत् मध्ये अपि तत्र यदि पश्यन्ति तत्र विश्वसंस्कृतगवाक्षः इति एव अस्ति तत्र प्रथमवारं गवाक्षः इति अस्ति तद् वातायनमस्ति किन्तु इदानीं तत्र एवं च गवाक्षात् इति अस्ति तत्र गवाक्षात् इति तत्र वातायनं नास्ति इदानीं इदानीं तत्र गवाक्षात् तदेव पदं किन्तु अर्थः भिन्नः इदानीं गोः दर्शनात् इति तत्र अक्षः नाम दर्शनं गोः दर्शनं गो गवाक्षात् गवाक्षः तत्र गवाक्षात् इति पञ्चमी कारणपञ्चमी गवाक्षात् तस्मात् कारणात् तत्र तत् कृतवान् अतः बालः किं ज्ञातवान् किं पश्यति गोशरीरं पश्यति अपि गोत्वसामान्यम् अपि पश्यति अत्र किञ्चित् वक्तव्यमस्ति तत्र गोत्व तत्र अत्र किमस्ति तत्र ग गो सामान्य तत्र गोशरीरम् इति अस्ति, गोशब्दः इति अस्ति, तत्र प्रथमतया तत्र गोशब्दः, हा सुधा भगिनी तत्र प्रायशः तत्र परिच्छेदं पूर्णतया पठतु भगिनी तत्र इदानीं तत्र
एतत् महोदय अत्र इत्युक्ते गवाक्ष इति शब्दः तदर्थमेव आगतः वा, अत्र वातायनम् इति वदामः अत्र गोः न गवाक्ष इति शब्दस्य अर्थः एव सः वा इति.
सत्यं सत्यं हा 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 सत्यं
बारीक
करावलं सत्यं भगिनि हा हा हा
सत्यं बारीक
तत्र सत्यं भगिनि हा गोः दर्शनं कर्तुं शक्नुमः तेन इति अतः तत्र गवाक्षः इति आगतम् अर्थः आगतः अर्थः सत्यम् अस्तु सुधा भगिनि अग्रे
मात्रा इयं गौः इत्युक्तौ गोशब्दस्य गोत्वशरीरयोः च सम्बन्धमपि जानाति.
पूर्वं पूर्णं पठतु भगिनि एकवारं.
ततः उद्यानमार्गे पुनः नूतनां गां तत्र गोत्वं च पश्यति. गोशब्दं स्मृत्वा गौः इयम् इति च वक्ति.
अतः तत्र वार्तात्रयम् इदानीम् अस्ति. तत्र वार्तात्रयं किम् अस्ति? प्रथमतः तत्र गौः इति शब्दः, शब्दः गौः इति शब्दः, अपि गोशरीरं गोशरीरं साक्षात् गौः अस्ति, धेनुः अस्ति, अपि गौः इति शब्दः, तयोः मध्ये सम्बन्धः अस्ति. शब्दः अपि पदार्थः तयोः मध्ये साधारणसम्बन्धः प्रसिद्धः सम्बन्धः तद् अस्ति. किन्तु इदानीं तत्र किम् अस्ति? नूतन अस्ति गोसामान्यं. तत्र गोसामान्यं भवेत् इति, तत्र यतोहि तत्र गोसामान्यं नाम तत्र अन्यत् किमपि अस्ति. तत्र गो इति शब्दः तत्र बालकः जानाति, गोशरीरं पश्यति, प्रथमधेनुः तत्र यदा तत्र प्रथमवारं सः गां पश्यति तत्र गौशब्दः अपि गोशरीरं तयोः मध्ये सम्बन्धः कः इति जानाति. किन्तु द्वितीयवारं तत्र या तत्र यां गां पश्यति सा गौः तु भिन्ना अस्ति. अतः तत्र किं तत्र सः कथं ज्ञातवान् तत्र एषा गौः इति? अथ तस्मिन् मनसि किमपि भवेत् खलु, किमपि ज्ञानं भवेत् खलु, येन सः अभिजानाति एषा गौः इति, खलु? यदि तत्र अन्यत् किमपि ज्ञानं नास्ति चेत् तत्र किं भवति सः? किन्तु वयं जानीमः अनुभवः अस्ति तत्र एषः ज्ञातवान् वक्तुं शक्नोति तत्र. अतः तत्र किम् अस्ति? वार्तात्रयम् अस्ति. बालकः गोलक्षणं गौः, हा गौः शब्दः गौशरीरं जानाति, तत्तु जानीमः तत्तु जानीमः. किन्तु इदानीं तत्र अन्यदपि अस्ति इति वयं ज्ञातुं शक्नुमः, नाम बालः गोलक्षणं सामान्यं तत्र नमसि तत्र तस्य मनसि भवेत् तत्र सदृशानां तत्र तत्र सर्वासां धेनु सर्वासां धेनूनां किमपि एकं सदृशम् अस्ति तत्र धेनूनां सादृशं किमपि अस्ति इति बालस्य मनसि अस्ति. सः लघुबालकः तत्र किम् अस्ति इति प्रायशः सः न वक्तुं शक्नोति, किन्तु सः अवगच्छति किमपि तत्र सामान्यं तत्र किमपि सदृशम् अस्ति. अपि सर्वे सर्वासां धेनूनां मध्ये एतत् किमपि सादृशम् अस्ति तयोः तेषां मध्ये इति सः जानाति. अतः तत्र किम् अस्ति तत्र? यदि केवलं गोशरीरम् अपि गोशब्दः इति एव अस्ति इति स्वीकुर्मः तत्र किं भवति? गो इति तत्तु द्रव्यं भवति. अपि गुणः अस्ति इति पूर्वम् उक्तवन्तः, कर्म अस्ति इति अपि दृष्टवन्तः. किन्तु इदानीं सामान्यम् इति पदार्थः अस्ति न वा इति प्रश्नः. अतः इदानीं किं कृतमस्ति तत्र शास्त्रीयरीत्या उदाहरणं प्रमाणं दत्तमस्ति पश्यतु अस्मिन् अनुभवे शरीरम् एषा गा गौः भिन्ना पूर्वं यद् दृष्टा गौः भिन्ना किन्तु एषः बालकः अवगच्छति एषा गौः इति अतः तत्र सर्वासां तत्र गवां मध्ये किमपि सदृशं भवेत् तत् सदृश तत्र सामान्यधर्मः गोसामान्यम् इति व्यवहारः भवति तत्र गोसामान्यं यदि वयं न स्वीकुर्मः तत्र बालकस्य मनसि गौः इति तत्र तस्य एषा गौः इति ज्ञानं न भविष्यति तस्मिन् मनसि किन्तु तस्मिन् मनसि उदेति एतद् ज्ञानम् अतः अत्र अस्मिन् परिच्छेदे किम् उक्तम् इत्युक्ते तत्र पूर्वं ते वदन्ति सप्तपदार्थाः सन्ति तत्र केवलं वदन्ति वयं प्रष्टुं शक्नुमः किमर्थं तत्र कथं जानीमः सप्तपदार्थाः सन्ति पूर्वपक्षिणः इति तत्र अग्रे अपि पश्यामः तत्र आपोजिट् सैड् इति तत्र पूर्वपक्षिणः अथवा चालेञ्जर् ते वदन्ति तत्र प्रायशः सप्तपदार्थः इति भवान् वदति किन्तु प्रमाणं किम् इति तत्र इदानीं तत्र सामान्यम् अस्ति इति तस्य प्रमाणं दत्तमस्ति बालकः घां पश्यति एषा गौः इति मात्रा उक्तम् अपि अनन्तरं सः पुनः अन्यां घां पश्यति सा गा तु भिन्ना अस्ति किन्तु सः अभिजानाति कथम् अभिजानाति तस्मिन् मनसि जाति नाम अथवा सामान्यं नाम पदार्थः अस्ति तस्मिन् मनसि एषः पदार्थः अस्ति सः पदार्थः द्रव्यं नास्ति गुणः नास्ति कर्म नास्ति अन्य कोऽपि पदार्थः अस्ति सः जाति इति व्यवहारः अथवा सामान्यम् इति व्यवहारः अत्र गोसामान्यम् इति उदाहरणे गोसामान्यम् इति पदार्थः अस्ति तेन वयं ज्ञातुं शक्नुमः तत्र सामान्यम् इति किमपि कोऽपि पदार्थः अस्ति इति अस्तु तत्र प्रश्नाः सन्ति वा अस्मिन् विषये तत्र गोसामान्यं नाम किम् इति तत्र अग्रे अपि किञ्चित् विवरणं भवति तत्र गोसामान्यं नाम तत्र सर्वत्र एषः कः धर्मः तत्र सर्वेषां तत्र सर्वासु गोषु वर्तते सः धर्मः सामान्यं गोसामान्यम् इति व्यवहारः भवति अस्तु तत्र प्रश्नः अस्ति
एका शङ्का अस्ति महोदय तत्र फुट्नोट् अस्ति फुट्नोट् टु अमुं च सम्बन्धं शक्तिरूपं शब्दखण्डे निरूपयिष्यामः तस्य अर्थं सः
सत्यं सत्यं तत्र गो इति शब्दः अस्ति अपि पदार्थः अस्ति तत्र शब्दः गौः इति केवलं शब्दः अस्ति खलु तत्र अस्माकं वदनात् शब्दः आगच्छति खलु मुखात् आगच्छति शब्दः गौः इति शब्दः भिन्नः साक्षात् पदार्थः येन इङ्कितः एषः तत्र शब्दात् शब्दात् तत्र पदं भिन्नं पदार्थः भिन्नं भिन्नः खलु हा तत्र पुस्तकमिति इति पदमस्ति साक्षात् पुस्तकं भिन्नमस्ति खलु पुस्तकं पदार्थः पुस्तकमिति केवलं शब्दः खलु शब्द अपि पदार्थ तयोः मध्ये सम्बन्धः अस्ति ततः एव वयं शब्दस्य श्रवणेन पदार्थस्य ज्ञानम् ओ एषः पदार्थः इति वयं जानीमः खलु पुस्तक इति शब्दस्य श्रवणेन पुस्तकम् इति पदार्थस्य ज्ञानं मम मनसि उदेति अतः शब्दः पदार्थः तयोः मध्ये कोऽपि सम्बन्धः भवेत् सः सम्बन्धः कः इत्युक्ते तत्र शब्दखण्डे तस्य विवरणं दत्तम् अग्रे भवति शब्दबोधः इति तत्र एकं प्रमाणम् अस्ति तत्र प्रमाणेषु तत्र चतुर् तत्र प्रमा तत्र प्रत्यक्षम् अनुमानम् इति भवति तत्र तस्मिन् तत्र शाब्दबोधः इति एकः अस्ति तत्र शक्ति इति तत्र सम्बन्धस्य नामकरणम् अस्ति तत्र शक्ति इति एव सम्बन्धः अस्ति शब्द अपि तत्र पदम् अपि पदार्थः तयोः मध्ये सम्बन्धः शक्तिः इति अग्रे पश्यामः
अस्तु धन्यवादः
अस्तु इदानीं तत्र गौः इति शब्दः अस्ति गोशरीरं साक्षात् धेनुः अस्ति अपि गोसामान्यम् इति पदार्थः अपि अस्ति एतस्य ज्ञानेन गोसामान्यम् इति पदार्थस्य ज्ञानेन एव बालः अन्यां गां दृष्ट्वा एषा गौः इति वक्तुं शक्नोति यदि तत्र गोसामान्यं तत्र यदि तत्र गोसामान्यम् इति पदार्थः न अभविष्यत् तर्हि सः द्वितीयवारम् अज्ञास्यत् यत् इयं गौः इति नाम तत्र यदि तत्र सामान्यमिति पदार्थः नास्ति चेत् तत्र द्वितीयवारं तस्य अभिज्ञानं न भवति किन्तु तस्य अभिज्ञानम् अभवत् अतः अन्यः पदार्थः भवेत् तस्य नाम एव सामान्यम् इति अस्तु तत्र सामान्यम् इति गोसामान्यं तत्र पुस्तके यत् सामान्यमस्ति तद् वयं वदामः पुस्तकत्वम् इति अपि द्रव्ये यत् सामान्यं वर्तते तत् द्रव्यत्वम् इति व्यवहारः भवति अस्तु तर्हि अग्रे सरामः तत्र
महोदय विमला अस्मि अद्य वक्तुं शक्नोमि प्रश्नः अस्ति महोदय अत्र प्रथम पिण्ड इति शास्त्रे व्यवह्रियते इति प्राणिनः पर्यायशब्दः वा मार्गे पूर्वदृष्टसदृशाकारं प्राणिनं तत्र एकसङ्ख्या अस्ति
तत्र प्राणिनम् पिण्ड इति अपि तत्र प्राणि तत्र प्राणिनः पर्यायपदं तत्र पिण्ड इति अपि पिण्ड इति अपि शास्त्रे व्यवहारः भवति
अस्तु धन्यवादः
किन्तु भवती इदानीं तत्र पठितुं शक्नोति वा
शक्नोमि महोदय
अस्तु भगिनि तत्र पठतु तर्हि तथा च इति
तथा च सामान्यपदार्थस्वीकारे अपूर्वगोव्यक्तेः ज्ञानं न स्यात् अतः सामान्यमवश्यं कार्यं
तत्र अस्तु वदतु पठतु भगिनि भविष्यति पर्यन्तम्
अस्तु तदेव शास्त्रे जातिः इति व्यवह्रियते तल्लक्षणविचारः सङ्ग्रहानुसारेणैव भविष्यति
तावत् इदानीं तत्र तथा च
सामान्यपदार्थस्वीकारे
तत्र भगिनि तत्र तस्य व्यस्तरूपेण वदतु तत्र सामान्यपदार्थ इति तत्र
सामान्यपदार्थ इत्युक्ते अद्य सामान्यस्य चिन्तनं कुर्वन् अस्मः सामान्यपदार्थ इत्युक्ते किम् इति
किन्तु तत्र सामान्यपदार्थ तदनन्तरं किम् अस्ति
स्वीकार
किन्तु दीर्घाकार अस्ति एतदेव अस्ति भगिनि तत्र
अस्वीकारे अस्तु अस्तु महोदय पदार्था स्वीकारे अस्तु स्वीकारे
तत्र सामान्य इति पदार्थः नास्ति इति यदि चिन्तयामः तत्र न स्वीकुर्मः अस्वीकारे
स्वीकारे अस्तु अपूर्वगोव्यक्तेः ज्ञानं न स्यात्
अपूर्वगोव्यक्तेः नाम या तत्र केवलं यदि गां यदि गोदर्शनम् अस्ति चेत् केवलं तत्र तस्य गोः एव तत्र ज्ञानं भवति अन्ये अन्यासां गवां ज्ञानं न भवति खलु
अस्तु अस्तु आम् आम्
अतः यदि सामान्यम् इति पदार्थः न स्वीकुर्मः तत्र तस्य अस्वीकारे अपूर्वगोव्यक्तेः ज्ञानं न स्यात् गोव्यक्तेः नाम गावः सन्ति गावः इति तत्र समुदायः इति चिन्तयामः एकः गावः व्यक्तिः एका व्यक्तिः तत्र अपूर्वगोव्यक्तेः नाम एषा गौः अस्ति किन्तु तस्याः दर्शनं पूर्वं न अभवत्। यदि न अभवत् वयं तत्र बालकः न जानाति एषा गौः इति, यतोहि पूर्वं सः न दृष्टवान्, किन्तु सः गौः इति जानाति। अतः सामान्यम् इति एकः पदार्थः, गोसामान्यम् इति किमपि पदार्थः भवेत्। अग्रे
अतः सामान्यम् अवश्यं स्वीकार्यम्।
अतः
सामान्य इति पदार्थः अस्ति इति अस्माभिः स्वीकरणीयं।
हा, तत्र किमपि विकल्पः नास्ति, तादृशपदार्थः अस्ति इति एव वक्तव्यमस्ति अस्माभिः। हा, अग्रे
तदेव शास्त्रे जातिः इति व्यवह्रियते, इत्युक्ते सामान्यं यदस्ति तस्य सामूहिकनाम जाति इति अस्ति।
हा, तत्र धेनूनां सामान्यं तत्र जातिः इति वदामः,
इति उच्यते। तल्लक्षणविचारः सङ्ग्रहानुसारेण एव भविष्यति,
नाम सामान्यस्य लक्षणं
सङ्ग्रह इत्युक्ते वारंवारं
तर्कसङ्ग्रहः, मूलग्रन्थः मूलग्रन्थे या क्रमः स्वीकृतः अस्ति तं क्रमम् एव आधाय अत्रापि तत्र तस्य लक्षणम् अग्रे निरूप्यते। नाम इदानीं तत्र न कुर्मः, यतोहि वयं तत्र तर्कसङ्ग्रहम् इति एव तत्र अनुसरणं कुर्वन्तः स्मः, तत्र कथमस्ति तथैव वयमपि कुर्मः, तस्य लक्षणम् अग्रे भवति इति।
अस्तु,
हा, समीचीनं भगिनि, धन्यवादः। अस्तु, हा, अस्तु, अग्रे तत्र आदर्श महोदय पठितुम् इच्छति वा महोदय?
आम्,
अस्तु।
तत्र एक अनेकजातीनां वृत्तित्वनिरूपणं तद्विभागं सम्प्रति आह परम् अपरं चेति द्विविधं सामान्यमिति दर्शितरीत्या सामान्यं सिद्धं। तत्र इदमुक्तं भवति पुस्तके पुस्तकत्वं सामान्यमस्ति, तथैव पुस्तकं वीक्षमानरीत्या पृथिवी वक्षमानरीत्या पृथिवी, अतः तत्र पृथिवीत्वं जातिर्वर्तते। पुस्तके पूर्वोक्तरीत्या गुणः अस्ति इति तद् द्रव्यमपि, अतः तत्र द्रव्यत्वं जातिः अपि अस्ति।
हा, तावत् तावत् वदतु महोदय।
ग्रन्थकारः उच्यति अयं सामान्यं द्विविधमिति, परम् अपरं चेति।
इदानीं तत्र तस्य विवरणम् अग्रे भविष्यति, तत्र परं नाम किम् अपरं नाम किम् इति। अग्रे दर्शितरीत्या
सामान्यं सिद्धं नाम सामान्यमिति किम् इति सिद्धं पूर्वमेव
सिद्धं, हा, वयं जानीमः तत्र गोसामान्यमिति उदाहरणं स्वीकृत्य शास्त्रीय तद् अस्ति इति वयं निरूपितवन्तः खलु। सामान्यं सामान्यमिति किमपि वस्तु तत्र अथवा कोऽपि पदार्थः अस्ति इति तत्तु कृतम् अस्माभिः। हा, इदानीं
तत्र इदमुक्तं भवति किम् इति चेत् पुस्तके पुस्तकत्वं सामान्यम् अस्ति।
हा, पुस्तके सर्व तत्र सर्वेषु पुस्तकेषु
विद्यमानः
समानधर्मः यत् यः वर्तते तस्य नाम अस्ति पुस्तकत्वं इति। हा, अग्रे
पुस्तकं वक्षमानरीत्या पृथिवी।
हा, तत्र पुस्तकं तत्र कीदृशपदार्थः इत्युक्ते तत्र उत्तरं किं भवति, पुस्तकं तत्र द्रव्यमस्ति वा अथवा अन्यपदार्थः अस्ति वा, तत्र द्रव्यमिति वदामः खलु पुस्तकं। किन्तु हा किन्तु नवद्रव्याणि सन्ति, अतः तत्र पुस्तकं किं जलं वा तेजः वा वायुः वा, तत्र पृथ्वी इति भवति खलु पुस्तकम्। अतः तत् वक्ष्यमाणरीत्या नाम यथा वयम् अग्रे पश्यामः तया रीत्या पृथ्वी इति इति अवगच्छामः, तत्र पुस्तकं पृथ्वी इति द्रव्यं भवति इति। अतः तत्र
पुस्तके पृथ्वीत्वमपि भवति,
जातिः नाम सामान्यं वर्तते,
पृथिवीत्वं जातिः वर्तते पुस्तके
पुस्तके अतः तत्र एतावत् किम् आगतं पुस्तके पुस्तकत्वम् इति सामान्यमस्ति अपि पृथ्वीत्वम् अपि
सामान्यमपि
अस्ति हा इदानीम् अग्रे पुस्तके
पुस्तके पूर्वोक्तरीत्या गुणः अस्ति इति तद् द्रव्यमपि
हा नीलवर्णः अस्ति इति तत्र वक्तुं शक्नुमः अतः तत्र गुणः अपि अस्ति इति कृत्वा पुस्तकमपि अस्ति तत् पृथ्वी द्रव्यमपि अतः पुस्तकं द्रव्यमेव अतः तत्र पुस्तके पुस्तकं द्रव्यम् अतः तत्र द्रव्यस्य तत्र सामान्यं किमस्ति द्रव्यत्वम् इति जातिः अतः तत्र द्रव्यत्वं जातिः अपि पुस्तके अस्ति अतः पुस्तके किं किम् अस्ति इदानीं
पुस्तकत्वमस्ति पृथिवीत्वमस्ति द्रव्यत्वमपि अस्ति
इति आगतम् अतः तत्र एकत्र अनेकजातीनां वृत्तित्वं नाम वर्तते इदानीम् एकस्मिन् पुस्तके तत्र अनेकजातयः वर्तते खलु वर्तन्ते खलु हा तत्र पुस्तकत्वं वर्तते पृथ्वीत्वं वर्तते द्रव्यत्वमपि अपि वर्तते अतः तत्र अनेकजातयः एकस्मिन्नेव द्रव्ये वर्तन्ते वृत्तित्वं नाम वर्तते
अत्र पृथ्वीत्वं कथं सम्पादितम् इति किञ्चित्
तत्र वक्ष्यमाणरीत्या अस्ति अस्ति खलु वक्ष्यमाणरीत्या नाम यथा वयं पश्यामः पुस्तकं पृथ्वी इति अग्रे पश्यामः
इदमेव रीत्या गोत्वं पृथ्वीत्वं द्रव्यत्वमपि अस्ति किल
हा समीचीनं समीचीनं महोदय तदेव अस्ति हा सत्यं समीचीनम् अस्तु धन्यवादः महोदय अस्तु अग्रे तत्र हा ललिता भगिनी तत्र अग्रे पठितुम् इच्छति वा अस्तु अग्रे तत्र हा सूर्यकुमारी भगिनी पठितुम् इच्छति वा
महोदय इदानीं नीलवर्णम् उदाहरणं स्वीकुर्मः तत्र नीलत्वजातिरस्ति सः वर्णः अतः तत्र वर्णत्वमपि वर्तते परन्तु शब्देपि वर्णः इति व्यवहारः वर्तते अतः वर्णः इत्युक्तौ संशयः भवति अतः इतः वर्णे रूपमिति व्यवहरामः
वदतु भगिनि तावत्पर्यन्तं व्यवहरामः तत्र इदानीं नीलवर्णम् उदाहरणं
स्वीकुर्मः
तत्र नीलवर्णम् इति वयं सर्वे जानीमः खलु तत्र नीलवर्णम् इति
नीलवर्णम् उदाहरणं स्वीकुर्मः तत्र नीलत्वजातिरस्ति
हा यत्र यत्र नीलवर्णम् अस्ति तत्र नीलत्वम् इति जातिः सामान्यम् अस्ति
इदानीं अतः तत्र वर्णत्वमिति वर्तते
तत्र वर्णत्वमपि वर्तते खलु
वर्णत्वमपि अस्ति
हा नीलत्वम् अस्ति वर्णत्वमपि अस्ति हा
परन्तु शब्देपि वर्णः इति व्यवहारः
खलु शब्दे अपि वर्णः इति व्यवहारः भवति खलु वर्णमाला इति वदामः खलु तत्र सवर्णदीर्घसन्धि अकारः अकारः वर्णः इति अन्तिमवर्णः इति अतः तत्र शब्दे अपि वर्णः इति भवति खलु अतः तत्र किं वदति वर्णः इति यदि वदामः अग्रे अस्माकं मनसि संशयः उदेति तत्र शब्दस्य विषये किमपि उक्तं वा अथवा नीलवर्णविषये किमपि उक्तं वा अतः तत्र मनसि संशयः उदेति अतः संशयं मास्तु इति कृत्वा इदानीम् अस्माकं व्यवहार वयं किं कुर्मः
वर्णे रूपम् इति व्यवहरामः
नाम वर्णम् इति अनुक्त्वा रूपम् इति वदामः इदानीम् आरभ्य इतः परं किं कुर्मः वर्णं वर्णः इति न वदामः वर्ण इति स्थाने रूपम् इति वदामः तत्र नीलवर्णमिति त्यक्त्वा नीलरूपम् इति
नीलरूपम्
इति अग्रे भविष्यति
आचार्य एकं प्रश्नम्
एकः प्रश्नः वदतु महोदय
नीलवर्णम् उपजाति अपि भवति
तत् तत् अग्रे 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 पश्यामः महोदय तत्र किम् अस्ति इति समीचीनं समीचीनमेव समीचीनमेव तद् भवति न वा इति अग्रे पश्यामः उत्तमप्रश्नः किन्तु अग्रे अग्रे पश्यामः
अस्तु सर् अस्तु
हा धन्यवादः समीचीनं समीचीनप्रश्नः
नीलरूपम् इति व्यवहरामः
हा इदानीं तावत् हा इदानीं पठतु भगिनि तथा च
तथा च नीलरूपे रूपत्वं मपि वर्तते
हा इदानीं तत्र पूर्वं तत्र वर्णत्वम् इति रूपत्वम् इति जातिः रूपत्वम् इति जातिः नीलरूपे वर्तते
स च गुण इति कृत्वा तत्र गुणत्वजातिरपि वर्तते
हा यतोहि तत्र प्रथमगुणः किम् अस्ति रूपम् इति एव अस्ति खलु तत्र चतुर्विंशतिगुणाः सन्ति इति यथा यदा उक्तवन्तः तत्र रूपरसगन्धस्पर्श इति एव अतः प्रथमगुणः एव रूपम् अतः रूपं गुणमस्ति इति कृत्वा तत्र गुणत्वम् इति जातिः अपि तत्र वर्तते
कर्मस्थले उत्क्षेपणम् उदाह्रीयते
उदाह्रीयते
अहं न जानामि
तत्र उत्क्षेपणमिति क्रिया उत्क्षेपणं नाम तत्र उत्क्षेपणम् तत्र अपक्षेपणम् इति उक्तवन्तः खलु उपरि
क्षिपणम्
इति क्रिया तत्र
उत्क्षेपणम्
हा उत्क्षेपणत्वम् इति जातिः वर्तते कर्म अस्ति नाम क्रिया अस्ति इति कृत्वा तत्र कर्मत्वमपि अस्ति खलु अतः तथा च इत्थं चित्रं भवेत् तत्र चित्रे दर्शितमस्ति खलु हा समीचीनं धन्यवादः भगिनि तावदेव समीचीनं धन्यवादः
एकवाक्यम् अस्ति उत्क्षेपणे उत्क्षेपणत्वं वर्तते तच्च कर्म इति तत्र कर्मत्वमपि वर्तते तथा चैत्यं चित्रं भवेत्
तथा च इत्थं चित्रं भवेत् चित्रं चित्रं भवेत् नाम यथा दर्शितमस्ति तथैव चित्रं भवेत् खलु
आम् महोदय
नाम तत्र अन्य कोऽपि वदतु हा धन्यवादः भगिनि एतावत् समीचीनमस्ति अस्तु तत्र उपेन्द्रमहोदय तत्र वक्तुमिच्छति वा अत्र
महोदय एकः प्रश्नः पुस्तके पुस्तकत्वम् अस्ति चेत् पृथिवीत्वं द्रव्यत्वम् अस्ति एव किल अतः किमर्थं
समीचीनं समीचीनं किन्तु महोदय तत्र पश्यामः तत्र लेखनी अस्ति तत्र लेखन्यां तत्र द्रव्यत्वम् अस्ति पृथ्वीत्वमपि अस्ति किन्तु पुस्तकत्वम् अस्ति वा
न
हा अतः तत्र तत्र पुस्तकत्वम् इति तस्य क्षेत्रं भिन्नम् अस्ति द्रव्यत्वम् इति तस्य क्षेत्रं भिन्नम् अस्ति इति तद् वक्तुम् इच्छामः एकमस्ति चेत् अन्यतस्ति इति समीचीनमेव किन्तु तेषां तत्र तयोः मध्ये भेदः वर्तते क्षेत्रभेदः वर्तते इति तस्य उपयोगं कृत्वा एव तत्र परम् अपरम् इति तस्य निरूपणम् अग्रे भविष्यति महोदय हा नाम पुस्तकत्वम् अग्रे पश्य भवानिव पश्यति तत्र पुस्तकत्वम् अपरम् इति वदामः अपि तत्र द्रव्यत्वम् इति तत्र परम् इति भवति तत्र अस्मिन् उदाहरणे किन्तु सर्वेषां परम् अपि इति एकं सामान्यमस्ति, तदपि अग्रे पश्यामः. किन्तु समीचीनप्रश्नः महोदय.
धन्यवादः. अस्तु,
विमला भगिनी प्रश्नः अस्ति वा?
क्षम्यतां, नास्ति महोदय.
अस्तु अस्तु भगिनि, अस्तु. तर्हि तत्र अन्य कोऽपि पठतु, तत्र अग्रे तत्र गीताञ्जलि भगिनी तत्र चित्रे किम् अस्ति इति एकवारं विवृणोति वा?
आं महोदय. अस्तु, तत्र
पुस्तके किं किम् अस्ति?
पुस्तकं पुस्तकत्वम् अस्ति, पुस्तके पृथ्वीत्वम् अस्ति, अपि च पुस्तके द्रव्यत्वम् अस्ति.
समीचीनम्. अग्रे
अग्रे नीलरूपम् अस्ति, नीलरूपे नीलत्वम् अस्ति, अपि च रूपत्वम् अस्ति, अपि च गुणत्वम् अस्ति.
यतोहि रूपं
किमर्थं नीलरूपं द्रव्यं नास्ति, गुणत्वम् अस्ति तत्र.
गुणत्वम् अस्ति किन्तु द्रव्यत्वं तत्र नास्ति.
उत्क्षेपणकर्म उत्क्षेपणकर्मे उत्क्षेपणकर्मणि उत्क्षेपण त्वम् अपि च कर्मत्वम्
इति वर्तते. किन्तु तत्र
वर्तते
तत्र गुणत्वं न भवति, अपि द्रव्यत्वं न भवति. समीचीनं भगिनि. अस्तु, अग्रे
इति किञ्चित् भ्रम जातः. तत्र उत्क्षेपणकर्म
नाम क्रिया भगिनि, कर्म नाम क्रिया, उत्क्षेपणं नाम उपरि क्षिप किमपि क्षिपामः, सा क्रियायाः नाम अस्ति उत्क्षेपणकर्म इति.
अस्तु, किमपि क्रिया इत्थं दर्शितरीत्या पुस्तके द्रव्ये तिस्रः नीलादौ च तिस्रः जातयः सन्ति. कर्मणि द्वे जाति भवेताम्. सर्वा अपि इमाः जातयः एकविधदर्शनेन सिद्ध्यन्ति. इदं पुस्तकम् इदम् अपरं पुस्तकम् इदमपि अपरमिति अनेकानि पुस्तकानि दृष्ट्वा पुस्तकत्वं सिद्ध्यति. एवं गुणत्वादौ ज्ञातव्यम्. तत्रापि रूपं गुणः, रसः गुणः इत्येवमेकाकारप्रतीत्या सर्वेषु गुणत्वसिद्धः
सिद्धिः
क्षम्यतां गुणत्वा सिद्धिः एवं कर्माणि एवं कर्मणि इत्युक्ते किमपि पदार्थ स्वीकृत्य वयं किञ्चित् अवगतवन्तः, तदेव ज्ञात्वा एवं कर्मणि अपि
सोपानेन गच्छामः. तत्र प्रथमतया तत्र वाक्यत्रयं स्वीकरोतु. तत्र प्रायशः चित्रं चित्रे किमस्ति तदेव तत्र लिखितम्
इत्थं दर्शितरीत्या पुस्तके द्रव्ये तिस्रः
सन्ति खलु
इत्युक्ते सन्ति इत्युक्ते पुस्तकत्वं
तिस्रः जातयः सन्ति पुस्तके
तिस्रः जातयः सन्ति अपि च नीलादौ तिस्रः जातयः सन्ति.
तदपि समीचीनं. अपि कर्मणि
कर्मणि द्वे जातिः
जाति यतोहि मति मतयः खलु
दीर्घ जाति
द्विवचने अस्ति द्वे जाति भवेताम्
सर्वा अपि इमाः जातयः एकविधदर्शनेन सिद्ध्यन्ति.
नाम एकविधदर्शनेन तत्र द्रव्यं तत्र पुस्तकम् इति तत्र तस्य उदाहरणमेव अग्रे वदति. एकविधदर्शनं नाम किं, तत्र जातिः कः, जातिः का इति तत्र तस्य ज्ञानं कथं भवति एकविधदर्शनेन. तत्र यतः बालकः प्रथमवारं घां दृष्टवान्, पुनः द्वितीयवारं घां दृष्टवान्, सः गोसामान्यं गोजातिः का इति यथा सः ज्ञातवान् तथैव वयमपि एकविधदर्शनेन वयं जातिः तत्र सामान्यं किम् इति ज्ञास्यामः. इदानीम् उदाहरणत्वेन किं दत्तमस्ति, इदम्
इदं पुस्तकम्, इदमपरं पुस्तकम्, इदमपि अपरमति अपरमिति
अपरं पुस्तकम् इति
अपरं पुस्तकम् इति अनेकानि पुस्तकानि दृष्ट्वा पुस्तकत्वं सिद्ध्यति
खलु.
सर्वेषु पुस्तकेषु सामान्यत्वम् अस्ति,
सामान्यम् अस्ति तत्र अस्ति. किन्तु प्रथमवारं पुस्तकं पश्यामः, अस्तु पुस्तकम् इति कोऽपि वदति. तदनन्तरम् अन्यत् पुस्तकं पश्यामः, ओ एतत् पुस्तकम् इति अस्माकं मनसि किमपि आगच्छति. किन्तु बहुवारं पुस्तकानि पश्यामः तदनन्तरम् अस्तु
पुस्तकत्वं
यत् कोऽपि न वदेत्, किन्तु वयं जानीमः एतत्तु पुस्तकमस्ति, अहं जानामि. अतः तत्र तस्मिन् नूतन यत् पुस्तकं वयं पूर्वं न दृष्टवन्तः, किन्तु तद् दृष्ट्वा एतत् पुस्तकम् इति अस्माकं ज्ञानं भवति. तत्र तदेव तत्र अतः तत्र एकवदर्शनेन जातिः का इति तत्र तस्य ज्ञानं भवति, सिद्ध्यति. तत्र पुस्तकत्वं सिद्ध्यति अस्माकं,
पुस्तकत्वं किम् इति सिद्ध्यति
सिद्ध्यति हा तथैव.
एवं एवं गुणत्वादौ ज्ञातव्यम्
तदेव गुणत्वं नाम इति अपि तत्र तथैव अस्माभिः ज्ञातव्यं भवति,
ज्ञातव्यं भवति. तत्रापि रूपं गुणः, रसः गुणः इति एव एकं इति
एकाकारः एकाकाराः
प्रतीत्या इत्युक्ते प्रतीतिः इति अत्र तु तृतीया प्रतीत्या सर्वेषु गुणत्वसिद्धिः.
हा तत्र रूपगण रूपम् इति गुणस्य तत्र अनेकविधं तस्य दर्शनं, रसः इति तस्य गुणस्य अनेकविध अनेकदर्शनम् एकविध किन्तु अनेकदर्शन अनेक
इति अपि वक्तुं शक्यते महोदय. रूपमपि रूपस्य जातिः अपि च रसस्य जातिः
किमपि अस्ति, रसत्वम् इति अस्ति. अतः तत्र अत्र
कर्मणि
हा कर्म अपि तत्र यत्र तत्र उत्क्षेपणत्वम् इति जातिः अस्ति इति तत्रापि अनेकवारं दर्शनेन सद् अस्ति इति अस्माकं ज्ञानं भवति. तत्र तत्र अतः तत्र रीतिः का उक्तमस्ति अत्र, तत्र एकं पुस्तकं दृष्ट्वा अन्यदपि पुस्तकं दृष्ट्वा दृष्ट्वा वयं यदि तत्र बहुवारं पुस्तकस्य दर्शनं कुर्मः तत्र एक आकारकप्रतीतिः स्फुरति अस्मिन् मनसि. तया प्रतीतया वयं सर्वेषु पुस्तकेषु पुस्तकत्वं किमपि सामान्यम् अस्ति इति जानीमः, तथैव अन्यत्रापि साधनं वयं कुर्मः. तत्र द्रव्यत्वम् अस्ति, रसत्वम् अस्ति, गुणत्वम् अस्ति, कर्मत्वम् अस्ति इति वयं साधयामः. अतः तत्र सर्वेषां पदार्थानां जातिः इति भवति इति तत्र एतावत् उक्तं. पुस्तकमिति उदाहरणं स्वीकृत्य पुस्तकत्वं यथा वयं जानीमः तथैव अन्येषां पदार्थानामपि जातिः अस्ति इति ज्ञातुं शक्नुमः. अस्तु समीचीनं भगिनि, धन्यवादः.
धन्यवादः. नीलवर्णम् उदाहरणं स्वीकुर्मः चेत् वर्णः अपि द्रव्यमस्ति किल?
वर्णः इति तत्र वर्णः इति अत्र उक्तमस्ति खलु भगिनि, तत्र रूपम् इति एव वयं वदामः. रूपं रूपम् इति गुणः, नीलरूपम् इति तत्र रूपमिति तत्र धन्यवादः भगिनि. तत्र रूपमिति अग्रे किं भवति, रूपमिति तत्र आकारः नास्ति. एतत्तु तत्र मनसि स्थापनीयमस्ति, तत्र रूपं नाम आकारः नास्ति, नीलवर्णः, वर्णः नाम कलर्, तत्र रूपं नाम कलर् एव, किन्तु आकारः नास्ति. अस्तु, तत्र अस्तु, तत्र निमेषत्रयमेव अस्ति, किन्तु समीचीनमेव. तत्र अद्य वयं तत्र किं कृतवन्तः, तत्र सामान्यं किम् इति दृष्टवन्तः. इदानीं तत्र अग्रे अस्ति तत्र सत्ता इति, प्रायशः तत्र तस्यापि एकवारं तत्र पठनं कर्तुं शक्नुमः. हा अस्तु, तत्र कः कर्तुम् इच्छति तत्र? ललिता भगिनी.
अहं पठामि.
अस्तु भगिनि, अस्तु भगिनि, पठतु भगिनि. हा अस्तु, अस्तु, अग्रिमे पुटे सत्ता अतिरिक्ता जातिः.
सत्ता अतिरिक्ता जातिः इति निरूपणम्. परन्तु एकाकारज्ञानं यथा गवादौ भवति तथा द्रव्यं सत् गुणः सन् कर्म सत् इति द्रव्यगुणकर्मणामपि एकविधं ज्ञानं वर्तते. एवं च शाबलेयः गौः बाहुलेयः गौः इति एकविधज्ञानेन यथा सर्वेषु गोषु गोत्वं सिद्धयति तथा द्रव्यं सत् गुणः सन् कर्म सत् इति एकविधज्ञानेन द्रव्यगुणकर्मसु अतिरिक्तं सामान्यं जातिः सिद्धयति. सतः भावः धर्मः सत्ता अतिरिक्ता जातिः.
हा समीचीनं भगिनि. हा तत्र तत्र किमस्ति, सत्ता इति अतिरिक्ता नाम, अतिरिक्ता नाम अन्या, अन्या जातिः अस्ति. तत्र सा जातिः, सत्ता इति जातिः, द्रव्यत्वं नास्ति, गुणत्वं नास्ति, कर्मत्वं नास्ति, सा जाति भिन्ना अस्ति इति तत्र अत्र भवति. तत्र किञ्चित् वक्तुं शक्नोति वा भगिनी ललिता भगिनी तत्र?
परन्तु प्रयत्नं करोमि. हा
करोतु भगिनी. हा परन्तु, हा
परन्तु एकाकारज्ञानं यथा गवादौ भवति तथा द्रव्यं सत्
तत्र
अहं
तत्र प्रथम तत्र गोः दर्शनं तत्र भवति खलु, तत्र बालकस्य प्रथमवारं सः गो पश्यति, गां पश्यति, द्वितीयवारं गां पश्यति, वा एषा गौः इति यथा सः जानाति तथैव वयम् इदानीं तत्र तदेव तत्र एकाकारज्ञानम् इति वदामः.
तथैव
तत्रापि तत्र सत्ता का इति तस्य वर्णनं भवति. अस्तु, तस्य विवरणम् अग्रिमे वर्गे एव कुर्मः भगिनि. हा चिन्ता मास्तु, एतावत् समीचीनमेव. तत्र एकवारं पठितवन्तः, किन्तु अग्रिमे वर्गे एव कुर्मः. अस्तु, तर्हि प्रश्नाः सन्ति वा? एतावत् वयं किं कृतवन्तः तस्मिन् विषये?
एकः प्रश्नः अस्ति.
अतिरिक्त इति अन्या भिन्ना इति चिन्तयतु भगिनि.
अन्यभिन्ना,
हा हा भिन्ना नाम सत्ता इति द्रव्यत्वं नास्ति, गुणत्वं नास्ति, रूपत्वं नास्ति, कर्मत्वं नास्ति, भिन्ना अस्ति इति. सत्ता इति एव तत्र परं सामान्यमिति अग्रे भविष्यति भगिनि.
आं महोदय, धन्यवादः.
अस्तु,
शैलजा.
हा पृच्छतु भगिनि. हा
हा, रूपे केवल वर्णम् अस्ति, आकारः तत्र न अन्तर्भवति इति?
हा अत्र अस्मिन् यतोहि रूपम् इति गुणः केवलं वर्ण इति एव अस्ति भगिनि.
आकारस्य कृते कश्चित् अन्यगुणः अस्ति वा तस्य?
किं किं भगिनि?
आकारमिति गुणः नास्ति.
आकारः इति तत्र गुणः न भवति तत्र. हा परिमाणः इति एकः गुणः भवति, परिमाणः इति गुणः भवति. अतः तत्र रूपमिति यत्र उच्यते तत्र केवलं वर्ण नाम कलर् इति एव तत्र इति चिन्तनीयमस्ति अस्माभिः, न तु आकारः. अग्रे गत्वा अस्तु
अहं पृच्छामि वा?
आं वदतु महोदय.
पृष्ठ दश पृष्ठ पृष्ठे चित्र चित्र अस्ति तत्र पुस्तकं पुस्तकत्वं पृथ्वीत्वं द्रव्यत्वं अस्ति सन्ति किन्तु पुस्तकम् अस्ति तत् वर्णत्वम् अपि अस्ति रूपत्वम् अपि अस्ति
महोदय. समीचीनं समीचीनं. तत्र अतः तत्र किं केवलं तत्र उपशीर्षिका किमस्ति एकत्र अनेकजातीनां वृत्तित्वम् अतः केवलम् उदाहरणार्थं तत्र तिस्रः स्वीकृतः किन्तु अनेकाः जातयः भवितुम् अर्हति अर्हन्ति इति स्थापितं खलु. समीचीनमेव. तत्र केवलम् उदाहरणार्थे तिस्रः स्वीकृतः किन्तु अन्ये अपि अन्याः जातयः अपि सत्यम् अवश्यं भवन्ति तत्र. अतः एव समीचीनं प्रश्नः. अत एव अग्रे गत्वा वयं किमपि लक्षणम् एतत् किमस्ति केन निरूपितम् इति प्रश्नः यदा भवति तस्मिन् समये अस्माकं चिन्तनं भवति अस्तु तत्र अस्मिन् द्रव्ये एषा जातिः अस्ति अन्या जातिः अस्ति किन्तु के कया निरूपिता एतत् पदार्थः एषः पदार्थः इति अग्रे अस्माकं चिन्तनं भवति. अतः एकस्मिन् द्रव्ये अनेके अनेकाः जातयः भवन्ति इति इदानीं स्थापितम्.
ओके धन्यवादः
धन्यवादः.
तत्र नीलरूपम् इति अस्ति तत्र नीलत्वमपि तत्र भवति रूपत्वम् अस्ति. रूपत्वम् इत्युक्ते नीलवर्णः इति भवान् उक्तवान्. नीलत्वं रूपत्वं भेदः कथम् अवगन्तव्यम्?
नाम रूपमिति भिन्नमस्ति तत्र नीलम् इति तत्र रूपं नाम कलर् इति खलु. तत्र सर्वस्य तत्र रूपम् इति अस्ति चेत् तत्र सर्वदा नीलम् इति एव भवति वा? कृष्णवर्णमपि भवति खलु, रक्तवर्णमपि भवति खलु. अतः तत्र तयोः मध्ये भेदः अस्ति खलु.
खलु
तत्र नीलत्वं भिन्नम् अस्ति रूपत्वं भिन्नम् अस्ति.
सो वयम् एतादृशं स्वीकुर्मः वा? रूपत्वं चेत् कलेक्टिव् काम्पोनेण्ट्.
रूपत्वं नाम तत्र रूपम् अस्ति इति. किन्तु पुनः तत्र प्रश्नः भवति तत्र रूपम् अस्ति किन्तु कीदृशं रूपम् इति तत्र नीलरूपम् इति वर्णनं भवति अग्रे.
नीलत्वं रूपत्वं मध्ये अन्तर्भवति इति.
सत्यं. नीलत्वमिति एकं रूपम् अस्ति. नीलरूपम् इति एकं रूपम् अस्ति. कृष्णरूपं रक्तरूपम् इति भवति. अतः तत्र रूपेषु अनेके सदस्याः सन्ति.
अत्र रूपं चेत् केवलं वर्णः एव, आकारं नास्ति किल?
आकारः नास्ति. सत्यं. वर्णः एव किन्तु व्यवहारे वर्णः इति न वदामः यतोहि तत्र शब्दः अपि वर्णः इति भवति इति कृत्वा केवलं रूपम् इति वदामः. रूपम्
अस्तु.
तत्र रूपम् इति गुणः गुणः इति कृत्वा गुणत्वमपि नीलरूपे अस्ति वर्तते. किं किं महोदय?
रूपत्वे नीलत्वम् अन्तर्भवति?
न रूपे तत्र रूपे नीलरूपम् अस्ति
किन्तु रूपत्वे नीलत्वम् इति वक्तुं न शक्नुमः.
न तत्र अग्रे गत्वा वयं किं वदामः तत्र नीलत्वक्षेत्रं न्यूनमस्ति रूपस्य रूपत्वक्षेत्रस्य अपेक्षया.
रूपत्वं
वर्णस्य यत्र नीलत्वं भवति तत्र तत्र रूपत्वम् अवश्यं भवति, किन्तु यत्र यत्र रूपत्वं भवति तत्र नीलत्वम् अस्ति इति न वक्तुं शक्नुमः.
अस्तु
महोदय, एकं
धनश्री भगिनी वदतु अग्रे.
आमां महोदय, स्वप्रत्ययः यत्र यत्र अस्ति तदा सर्वदा सामान्यमेव दर्शयति इति.
भावः 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 इति स्वीकुर्मः तत्र सामान्यमिति. हा सामान्यमिति तत्र साधारणतया भगिनि सत्यं. अग्रे गत्वा पश्यति तत्र स्व इति द्विवारमपि आगच्छति, पुस्तकत्वम् इति अपि अग्रे आगच्छति.
ओ अस्तु
अस्तु
वदामि.
वदतु.
अहं वदामि वा?
एकनिमिष केवलं महोदय, एकनिमिषः. सि एस् आर् मूर्ति महोदय वदतु, किमपि प्रश्नः अस्ति, कोऽपि प्रश्नः अस्ति वा?
अहं क्लियर् एकं वस्तु पेण्टिङ्ग् दृष्ट्वा तत् रूपं डेफिनिशन् पश्यामः. वस्तु इति गौ अङ्गानि वगैरा रूपम् इस् डिफैनबल् इन् डिफ्रेण्ट् वेस् फ्रम् दि आब्जेक्ट् वी आर् अब्सर्विङ्ग्.
तत् सत्यं महोदय, किन्तु हा किन्तु तत्र वर्णनं भिन्नं, किन्तु अग्रे गत्वा वयं लक्षणं किम् इति वदामः. तत्र एकमेव लक्षणं भवेत्, तत्र डेफिनिशन् इति अग्रे भवति, तत्र पदार्थस्य लक्षणम् इति अग्रे भवति. अतः तत्र वर्णनं कथमपि भवतु, लक्षणम् एकमेव भवेत्, खलु? समीचीनम्. अस्तु अग्रे के वि महोदय.
अहं संशय
वदतु महोदय.
रूप वर्ण अत्र रूपत्वं नीलत्वं नीलरूपं रूपं परं सामान्य अस्ति.
तयोः मध्ये तत्र अस्तु, तत्र परं सामान्यं किमिति अग्रे ज्ञास्यामः, किन्तु तत्र अत्र सत्यं, तत्र रूपत्वं तस्य क्षेत्रं बृहत् अस्ति नीलत्वम् इति तस्य क्षेत्रस्य अपेक्षया
अपरम् अस्ति वा?
अपरम् सत्यं, तयोः मध्ये तुलना कुर्मश्चेत् नीलत्वं लघु तस्य क्षेत्रं लघु अस्ति, रूपत्वं तस्य क्षेत्रं बृहत् अस्ति. सत्यम्. अतः रूपत्वं परम् इति वक्तुं शक्नुमः, नीलत्वम् अपरम् इति वक्तुं शक्नुमः तयोः मध्ये.
यस् थैंक यू, धन्यवादः धन्यवादः.
समीचीनं. हा अस्तु अग्रे अन्य कोऽपि प्रश्नः? अस्तु तर्हि विरमाम. अग्रे तत्र सामान्यं किम् इति तत्र अस्माभिः ज्ञातमस्ति. अग्रिमवर्गे तत्र सत्ता इति तस्य विवरणं कृत्वा तदनन्तरं तत्र विशेषम् इति तस्यापि अवगमनं भवति. अस्तु तर्हि धन्यवादः, नमस्कारः. अग्रिमवर्गे मिलामः. नमस्कारः.
धन्यवादः. नमस्कारः.